अकार्या चरणे क्वापि जाते स्वस्य परस्य वा अंगच्छेदो न कर्तव्यः शस्त्राद्यैश्चक्रुधापि वा।